इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। प्रधानमन्त्री नरेन्द्र मोदी गतरात्रौ अमेरिका फ्रांस देशयोः सफलाधिकारिक यात्रां विधाय स्वदेशं प्रत्यागतः। अमेरिकीय राष्ट्रपतेः डोनाल्ड ट्रम्पस्य आमन्त्रणम् अभिलक्ष्य प्रधानमन्त्रिणः इयम् अमेरिकीय यात्रा अभवत्। प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् भारत अमेरिकादेशो आतंकवादं विरुध्य संघर्षे दृढतया उपस्थितौ स्तः। एतौ पारेसीमम् आतंकवादम् उन्मूलयितुं सहमतौ जातौ। ह्यः वाशिंगटन डीसी नगरे व्हाइट हाउस इत्यत्र अमेरिकीय राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यमुना साकं द्विपक्षीय वार्तायाः पश्चादेव संयुक्त वार्ताहर सम्मेलने प्रधानमन्त्रिणा वक्तव्यमिदं प्रकाशितम्। श्रीमोदिना उक्तं यत् भारतामेरिका राष्ट्रे एकविंशति शताब्द्याम् एकस्यै रक्षा सहभागितायै एकस्मिन् नवीने दशवर्षीये प्राग्रूपे हस्ताक्षरार्थं घोषणाम् अकुरुताम्। प्राग्रूपमिदं पञ्चत्रिंशदधिक द्विसहस्रतम वर्षपर्यन्तं प्रचलिष्यति। अस्योद्देश्यम् उभयोः देशयोः मध्ये रक्षासम्बन्धानां प्रबलीकरणं विद्यते। भारतामेरिकादेशो त्रिंशदधिक द्विसहस्रतम वर्षं यावत् द्विपक्षीयं व्यापारं द्विगुणीकृत्य पञ्चशत बिलियन डॉलर मितं यावत् कर्तुं निर्णीतवन्तौ। संजातोपवेशने अमेरिकीय राष्ट्रपतिना उक्तं यत् भारतामेरिकादेशो बृहत्तमेषु व्यावसायिक मार्गेषु अन्यतमौ स्तः। असौ अमेरिकादेशतः भारतदेशाय तैल प्राकृतिक वातीयेन्धनयोः प्रमुखापूर्तिकरणस्य उद्देश्येन एकस्य महत्वपूर्णस्य सन्धिपत्रस्य घोषणां कृतवान्। अत्रावधौ विदेश सचिवः विक्रम मिश्री इत्येषः सूचितवान् यत् भारतम् एतद्वर्षान्ते क्वाड शिखर सम्मेलनस्य आतिथ्यं विधास्यति। एतदर्थं प्रधानमन्त्री नरेन्द्र मोदी डोनाल्ड ट्रम्पम् आमन्त्रितवान्। प्रधानमन्त्री उक्तवान् यत् भारत थाईलैंड देशयोः मध्ये द्विसहस्रवर्षाधिकाः सुदृढ सांस्कृतिक सम्बन्धाः सन्ति। थाईलैंड देशे आयोज्यमानं संवाद इत्येतं कार्यक्रमं दृश्य संवादतन्त्र माध्यमेन सम्बोधयन् श्रीमोदी उक्तवान् यत् भारतस्य एक्ट ईस्ट नीतिः थाईलैंडस्य एक्ट वेस्ट नीतिः च परस्परं पूरके स्तः, याभ्यां पारस्परिक प्रगतिः समृद्धिः च वर्धेते। सः प्रोक्तवान् यत् एतत् एशियायाः पारस्परिक दार्शनिकाध्यात्मिक परम्पराणाम् एकं सुन्दरम् उदाहरणम् अस्ति। प्रधानमन्त्रिणा उक्तं यत् अनेन सम्मेलनेन प्रकाश्यते यत् एशियायाः शताब्दिसमयः न केवलम् आर्थिकमूल्यानाम् अपि तु सामाजिकमूल्यानां विषये अपि अस्ति। श्रीमोदी सबलम् उक्तवान् यत् भगवतः बुद्धस्य शिक्षाः शान्तिपूर्णस्य प्रगतिशीलस्य च युगस्य निर्माणे विश्वस्य मार्गदर्शनं कर्तुं शक्नुवन्ति। सः उक्तवान् यत् संघर्षे हि अद्यत्वे जनाः राष्ट्राणि च अतिक्राम्य प्रकृत्या सह द्वन्द्वं विधीयते। तेन उक्तं यत् अनेन पर्यावरणं संकटापन्नं जातं, यदस्माकं विश्वाय नितरां हानिकरं वर्तते। पाकिस्ताने बलूचिस्तान प्रान्ते हरनईस्थे शहराग क्षेत्रे दुरापन्ने मार्गीय विस्फोटे न्यूनातिन्यूनाः एकादश श्रमिकाः मृताः, सप्त अन्ये च गभीरतया व्रणिताः जाताः। व्रणिताः निकटस्थ चिकित्सालये प्रवेशिताः सन्ति। अन्ते क्रीडावार्तासु पञ्चविंशत्यधिक द्विसहस्रतमाब्दीयायां वुमन्स् प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां ह्यः गुजराते वडोदरायाः कोटाम्बी क्रीडांगणे आयोजिते औद्घाटनिके द्वन्द्वे रॉयल चैलेंजर्स बैंगलुरु दलेन गुजरात जायंट्स दलं षड्भिः क्रीडकैः पराजितम्। अद्यतने द्वन्द्वे वडोदरायां सायं सार्ध सप्तवादने मुंबई इंडियंस इत्येतं दलं डेल्ही कैपिटल्स दलेन स्पर्धिष्यते। इति वार्ताः।